सर्वोपनिषदो गावो कुदुग्धा गोपालनन्दनः पार्थो वस्स सुधीर्भोक्ता दुग्धं गीतामृतं महत् योगेशं सच्चिदानन्दं वासुदेवं व्रजप्रियं धर्मसंस्थापकं वीरं श्रीकृष्णं वन्दे जगद्गुरुं श्रीकृष्णं वन्दे जगद्गुरुं नमो नमः।
धन्यवादः भगिनि, उत्तमम् अस्ति भगिनि, धन्यवादः। सर्वेभ्यः नमः, सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं प्रवर्तमानः विषयः अस्ति तत्र स्वरसन्धिः। अस्मिन् विषये वयं बहु किमपि अतीतवन्तः, किन्तु तत्र अनेकविधस्वरसन्धयः सन्ति इति कृत्वा मध्ये तत्र एकां कथां पठामः इति आलोचनमस्ति। तत्र प्रथमा कथा अस्ति तत्र परोपकारप्रवृत्तिः इति, तां कथां पठामः। तर्हि अस्तु, तर्हि तत्र वेदा भगिनी आरम्भं करोति वा?
आं महोदय। परोपकारप्रवृत्तिः। रामरमणः बाल्यात्
कुत्र अस्ति
भगिनी? उमा मीनाक्षी भगिनी, नमस्कारः भगिनी। तत्र स्मारणपत्रे ईमेल् मध्ये तत्र अटाच्मेण्ट् रूपेण अपि अस्ति, लिङ्क् अपि अस्ति।
ओके ओके, तत्तु अहं न दृष्टवती, क्षम्यताम्।
चिन्ता मास्तु। पल्लवी भगिनी नमस्कारः, हर्षद भगिनी नमस्कारः।
नमस्कारः।
नमस्ते महोदय।
नमस्कारः।
रामरमणः आबाल्यात् परोपकारी सेवा भावतत्परः च। तस्य माता कनकसुन्दरी भगवतः जगन्नाथस्य भर्ता। सदा पुत्रं बोधयति स्म, दुःखग्रस्तानां साहाय्यं यदि क्रियेत तर्हि भगवान् सन्तुष्टः भवेत् इति। सा प्रतिदिनं निर्धनेभ्यः भोजनं दत्त्वा एव स्वयं भोजनं करोति स्म।
धन्यवादः भगिनि, समीचीनं। अस्तु, अग्रे शोभा भगिनी, अग्रे।
आं महोदय। कदाचित् रामरमणः भगवतः जगन्नाथस्य दर्शनं प्राप्य गृहं प्रति गच्छन् आसीत्। तदवसरे कश्चन वृद्धः शिरोभ्रमणं प्राप्य मार्गे एव अपतत्। एतद् दृष्टवतः रामरमणस्य मनः नितरां खिन्नं जातम्। सः वृद्धम् उपसर्य वस्त्रेण वीजनं कृतवान्। वृद्धः यदा नेत्रे उन्मीलितवान् तदा रामरमणः तस्मै पानाय जलं दत्तवान्। वृद्धस्य पार्श्वे तदीयवस्तूनां बन्धः पतितः आसीत्। तं स्वशिरसि संस्थाप्य वृद्धेन सह प्रस्थितं तेन।
तदा वृद्धः अवदत्, किम् एतत् क्रियते भवता महोदय? अहं तु निम्नजातीयः, भवान् च उच्चकुलीयः। भवता मम वस्तूनि न वोढव्यानि, एतत् उचितं न इति। तत् श्रुत्वा रामरमणः अवदत्, भगवतः दृष्ट्या सर्वे समानाः, अतः उच्चनीचभावस्य न कोऽपि अर्थः। भवान् तु वृद्धः, वृद्धस्य भवतः सेवा मम कर्तव्यम्। अत्र जातिप्रश्नः न उद्भवेत् एव।
समीचीनं, धन्यवादः भगिनि।
आं महोदय। तावता कनकसुन्दरी तत्र आगता। पुत्रस्य सहायप्रवृत्तिं दृष्ट्वा सा नितरां सन्तुष्टा। पुत्रम् आशिषा अनुगृह्णति सा अवदत्, वत्स, त्वया वृद्धस्य सेवायां प्रवृत्तिः दर्शिता। एतादृशी प्रवृत्तिः सदा भवतु त्वयि। तदा अवश्यमेव त्वया भगवतः कृपा पात्रता प्राप्स्यते एव।
समीचीनं, धन्यवादः भगिनि। अस्तु, अग्रे उषा भगिनी, अग्रे।
आं महोदय। अम्ब,
तव अपेक्षा एव आदेशः मम अतः परोपकारादिषु कदापि उपेक्षां न प्रदर्शयिष्यामि अहम् इति अवदत् रामरमणः अग्रे अयमेव रामरमणदासत्वेन ख्यातिं प्राप्तवान् समग्रे अपि उत्तर उत्कलराज्ये तस्य नाम ख्यातम् अभवत्
भवती सम्यक् अस्ति खलु भगिनी उषा भगिनी
अस्तु अयं महोदय अस्मि सम्यक् अस्मि महोदय
गतसप्ताहे तत्र वक्तुं न शक्तवती इति मन्ये खलु
आं महोदय
इदानीं समीचीनं
आं महोदय
अस्तु अस्तु चिन्ता मास्तु अस्तु तर्हि समीचीनं हा अतः तत्र कथाम् अवगच्छामः तदनन्तरं तत्र सन्देहे विषयः अस्ति इति अपि किञ्चित् परिशीलनं कुर्मः तर्हि तत्र सुजाता भगिनी नमस्कारः
नमस्कारः महोदय
क्षम्यतां चिन्ता मास्तु चिन्ता मास्तु परोपकारप्रवृत्तिः इति तत्र कथा आयोजिता आसीत् तत्र ईमेल् मध्ये प्रथमा कथा या तां पठन्तः स्मः
धन्यवादः
अस्तु तर्हि तत्र इदानीम् आरम्भतः किञ्चित् परिशीलनं कुर्मः तर्हि तत्र निवेदिता भगिनी इदानीं तत्र आरम्भतः प्रथमपरिच्छेदं पङ्क्तिशः किञ्चित् पठित्वा किञ्चित् विवृणोति वा
आम्
रामरमण
परोपकारप्रवृत्तिः अन्येषां कृते सहायम् इति करणीयम् इति प्रवृत्तिः
इति तत्र समीचीनं भगिनि परोपकारे
रामरमण परोपकारः परोपकारप्रवृत्तिः
प्रवृत्तिः तादृशी तत्र अभ्यासः तत् करणीयम् इति चिन्तनं परोपकारं करणीयम् इति चिन्तनं
रामरमणः आबाल्यात् परोपकारी सेवा भावतत्परः च रामरमणः नाम कोऽपि बालकः सः बाल्यावस्थे एव बहु परोपकारी अन्येषां कृते सेवया तत्परः आसीत्
तत्र इदानीं प्रायशः तत्र लघुबालकः नास्ति प्रायशः तत्र बालकः युवकः वा तत्र मध्ये अस्ति इति चिन्तयामः
युवकः
किन्तु बाल्यात् एव तादृशी तत्र प्रवृत्तिः तस्य आसीत् नाम तत्र परोपकारी
सेवापकारे
अपि तत्र सेवा भावना भाव अपि द्वयमपि तत्र परोपकारे
तस्य मनसि सेवाभावः
द्वयमपि आसीत् तस्मिन्
महोदय तत्र आ इति अर्थं किं रामरमणः आबाल्यात्
नाम बाल्यतः एव इति आबाल्यात्
इत्युक्ते किम् तत्र
आ इत्युक्ते तथा आरभ्य नाम अहं तत्र प्रातःकाल्यात् प्रातःकालतः इति तत्र आप्रातःकालः इति वक्तुं शक्नुमः आप्रातःकालः नाम तत्र प्रातःकालतः इदानीपर्यन्तम्
अहं इत्युक्ते
अव्ययभावसमासः अस्ति अव्ययभावसमासः अस्ति
अत्र अव्ययमेव तत्र तस्य परिवर्तनं न भवति
तस्य मातरं श्री कनकसुन्दरी तस्य माता कनकसुन्दरी तस्य मातुः नाम कनकसुन्दरी अस्ति सः भगवान् जगन् सोरि सा भगवान् जगन्नाथस्य भक्ता अस्ति परमभक्ता अस्ति
तत्र भगवान् इति न किन्तु तत्र भगवतः
भगवतः जगन्नाथस्य भक्ता अस्ति
भगवतः अपि जगन्नाथः तत्र भगवान् जगन्नाथः
भगवान्
प्रथमविभक्ति भगवतः जगन्नाथस्य षष्टिः हा तस्य भक्ता
जगन्नाथपुरी मध्ये भगवतः स्थानमस्ति खलु
हा समीचीनं हा तत्र
सा सदा पुत्रं
जगन्नाथः
जगत् अधिकं नाथः व्यञ्जनसन्धि अस्ति
हा तत्र कुत्र अस्ति जगन्नाथः
पुरी
जगन्नाथपुरी नगरे अस्ति
सा सदा पुत्रं बोधयति स्म दुःखग्रस्तानां सहायं यदि क्रियेत् तर्हि भगवान् सन्तुष्टः क्रियेत तर्हि भगवान् सन्तुष्टः भवेत् इति सा सदा पुत्रं प्रति उपदेशं करोति बोधयति स्म अत्र भूतकालरचना अस्ति स्म भूतकाल दर्शति स्म भूतकाल दर्शयति भूतकाल दर्शयति बोधयति स्म बुधधातु बुधबोध दुःखग्रस्तानां सहायं यदि क्रियेत
बुद्धिति धातुः किन्तु निच् नाम निच् अस्ति अतः बोधयति निच् अस्ति पठति पाठयति तथैव बुद् इति धातोः बोधयति इति निच् रूपं
दुःखग्रस्तानां सहायं यदि क्रियेत दुःखीजनानां दुःखग्रस्तानां दुःखीजनानां
साहाय्यं दुःखमस्ति
येषां दुःखमस्ति तेषां कृते साहाय्यं
पीडितानां दुःखेन पीडिता पीडितजना जनः दुःखग्रस्तः
दुःखग्रस्तः पीडितः
समासः दुःखग्रस्तः इति समासः दुःखेन ग्रस्तः यः सः दुःखग्रस्तः
बहुव्रीहिसमासस्ति
हा सत्यं भगिनि हा सत्यं हा सत्यं यदि साहाय्यं क्रियेत इति
यदि यदि तर्हि अव्ययुग्म अस्ति युग्म अस्ति खलु
क्रियेत इति लकारः कः
क्रियेत विधिलिङ्ग् अस्ति खलु
तत्र क्रूधातुः
क्रूधातु क्रूधातु
उभयपदे अस्ति करोति इति अस्ति
अत्रापि क्रियेत
आत्मनेपदीरूपं क्रिये किमस्ति आत्मनेपदीरूपं क्रूधातोः
क्रियते क्रियते क्रियन्ते अस्ति खलु लट्लकारे
अत्र अतः तत्र क्रियेत इति आत्मनेपदीरूपस्य विधिलिङ्गकारः क्रियेत तत्र करोति इति तस्य विधिलिङ्ग् अस्ति कुर्यात्
कुर्यात्
यदि कुर्यात् किन्तु अत्र यदि क्रियेत इति आत्मनेपदीरूपं तर्हि
तर्हि भगवान् सन्तुष्टः भवेत् आनन्दितः भवेत् भगवान् आनन्दितः भवेत्
भवेत् इति समीचीनं
तस्मिन् काले जातिसमस्या बहु अस्ति खलु
सत्यं
अतः सा प्रतिदिनं दिने दिने समास अस्ति अव्ययीभावसमास निर्धनेभ्यः निर्धनः अपि समास अस्ति निर्गतः धनं यस्य सः बहुप्रिय अस्ति निर्धनेभ्यः भोजनं दत्त्वा त्वान्तरूपमस्ति एव स्वयं भोजनं करोति स्म सा प्रतिदिनं यः निर्धनः अस्ति तं भोजनं ददाति
तत्र निर्धने
तेभ्यः
निर्धनः यः अस्ति तस्मै अथवा
ददाति अस्ति अथवा चतुर्थी विभक्ति अपेक्षा
समीचीनम् उत्तमं समीचीनं भगिनि
ददाति एव अपि अव्ययम् अस्ति अनन्तरं स्वयं भोजनं करोति
तत्र एव इति पदस्य अर्थः कः
भोजनं दत्त्वा एव मतलब
केवलं दानं कृत्वा
तत् अनन्तरम् अपि
अनन्तरमपि न अनन्तरम् एव नाम तत्र दानस्य
अनन्तरम्
एव भोजनं स्वयं भोजनं करोति स्म नाम दानेन विना भोजनं न करोति स्म खलु दानेन विना भोजनं स्वयं भोजनं न करोति स्म प्रथमं दानं तदनन्तरमेव स्वयं भोजनम् अतः तत्र एव इति तत्र सीमां रचयति खलु नाम केवलम् इति अर्थे दानम् एव भवति तदनन्तरमेव तत्र भोजनं हा यत्र एव पदः अस्ति तस्य प्रभावः पूर्वपदे भवति अत्र दत्त्वा इति पदे तत्र तस्य प्रभावः नाम तद् एव भवेत् तदनन्तरमेव अग्रिमकार्यम् इति अस्तु समीचीनं भगिनि हा उत्तममस्ति अस्तु
धन्यवादः
अग्रे हा अग्रे उमा मीनाक्षी भगिनी अग्रे पठति वा
ओके कदाचित् रामरमणः भगवतः जगन्नाथस्य दर्शनं प्राप्य गृहं प्रति गच्छन् आसीत् तदवसरे कश्चन वृद्धः शिरोभ्रमणं प्राप्य मार्गे एव अपतत् एतत् दृष्ट्वा एतद् दृष्टवतः रामरमणस्य मनः नितरां खिन्नः जातं सः वृद्धम् उपसर्य वस्त्रेण वीजनं कृतवान् वृद्धः यदा नेत्रे उन्मीलितवान् तदा रामरमणः तस्मै पानाय जलं दत्तवान् वृद्धस्य पार्श्वे तदीयवस्तूनां बन्धः पतितः आसीत् तं स्वशिरसि संस्थाप्य वृद्धेन सह प्रस्थितं तेन किं करणीयं प्रतिवाक्यम्
इदानीम् एकमेकं वाक्यं पठित्वा किञ्चित् तत्र विवृणोतु तत्र व्याकरणांशाः अथवा तत्र लकारः वा अत्र यत्र विशेषणविशेषभावः अस्ति इति तादृशं किञ्चित् अर्थः अपि तत्र व्याकरणांशानां किञ्चित् प्रतिपादनं
भगवतः जगन्नाथस्य दर्शनं प्राप्य गृहं प्रति गच्छन् आसीत् सः तु इति भाषते मन्दिरं गतवान् गमनकार्यं तु प्रचलन् आसीत् तस्मिन् समये
न तत्र जगन्नाथस्य दर्शनं प्राप्य इति अस्ति लेबन्तं खलु प्राप्य
तदनन्तरं गृहं प्रति गच्छन् आसीत्
गृहं प्रति गच्छन् आसीत् समीचीनं
प्रथमं कार्यं जगन्नाथस्य दर्शनं प्राप्तवान् तदनन्तरं गृहं गच्छन् आसीत् तस्मिन् समये ओके
तस्मिन् समये समीचीनं तदवसरे तस्मिन् समये
ओ ओके अहं चिन्तितवती व्याकरणमपि वक्तव्यम् ओके
वदतु भगिनि वदतु
भगवतः जगन्नाथस्य तत्र द्वयमपि षष्टिविभक्ति
विशेषणविशेषभावः
दर्शनं द्वितीया
तत्र कर्मपदं दर्शनं कर्मपदम् अस्ति प्राप्य प्राप्तवान् इति
प्राप्य लबन्तरूपं तत्र इतोपि किम् अस्ति प्राप्य विषये
किमपि नास्ति तत्र तावदेव गच्छन् इति शत्रन्तरूपं
ओके गृहं प्रति गच्छन् आसीत् गच्छन् किं
शत्रुन्तरूपं
शत्रुप्रयोगं
शत्रुप्रत्ययस्य प्रयोगः तत्र गच्छन् कः गच्छन् आसीत् रामरमणः गच्छन् आसीत्
रामरमणः गच्छन् आसीत्
अतः गच्छन् इति विशेषणम् अस्ति रामरमणः इति पदस्य
ओके गच्छन् रामरमणः एवम्
गच्छन् रामरमणः आसीत् एतावत् तावदेव इदानीम् अग्रे तदवसरे इति तस्मिन्
तदवसरे कश्चन वृद्धः शिरोभ्रमणं प्राप्य मार्गे एव अपतत् शिरोभ्रमणम् इत्युक्ते वाट् डिडिनेस् अवट्
समीचीनं सत्यं
भिन्नमेव चिन्तितवती तस्मिन् समये तदवसरे तस्मिन् समये यस्मिन् समये रामरमणः गृहं प्रति गच्छन् आसीत् तदेव समये एकः वृद्धः वृद्धस्य किं दशः शिरोभ्रमण कारणेन सः पतितः आसीत् अथवा अपतत्
पतितवान्
अपतत् अथवा पतनकार्यं कृतवान्
समीचीनं समीचीनं तदेव अस्ति नाम तत्र तत्र अन्यत्र नास्ति अन्यत्र सः न पतितवान् मार्गे एव सः मार्गे एव पतितवान्
एतत् दृष्टवतः रामरमणस्य मनः नितरां खिन्नं जातम् दृष्टवतः रामरमणस्य अत्र तु षष्टिषष्टि अस्ति न
समीचीनं तत्र प्रथमविभक्तिरूपं किम् अस्ति
दृष्टवत्
प्रातिपदिकं दृष्टवत् अस्ति शत्रन्तरूपम् अस्ति अतः तत्र प्रथमविभक्तिरूपं किमस्ति
दृष्टवान् अस्ति वा
हा दृष्टवान् दृष्टवत् इति प्रातिपदिकं दृष्टवान् दृष्टवान् एतत् दृष्टवान् रामरमणः इति किन्तु तस्य मनः अतः दृष्टवान् वत् इति प्रातिपदिकं दृष्टवत् इति अस्ति चेत्
अस्ति दृष्टवतः रामरमणस्य मनः मनः
तत्र वयं जानीमः खलु नाम तत्र तकारान्तपदस्य भवत् शब्दस्य एकवचने तत्र तृतीया विभक्ति आरभ्य सप्तमी विभक्तिपर्यन्तम् एकवचने रूपाणि कानि तत्र भवत् शब्दस्य तत्र तृतीया अस्ति भवता
आगच्छति न
अत्र
दृष्टवान् नकारान्त अस्ति
दृष्टवान् इति दृष्टवान् पदं नकारान्तम् अस्ति किन्तु प्रातिपदिकं तकारान्तं
तु तकारः एव
अतः दृष्टवत् इति प्रातिपदिकं यथा भवत् इति प्रातिपदिकं तस्य प्रथमविभक्तिरूपं भवान् तथैव दृष्टवत् इति प्रातिपदिकं तस्य प्रथमविभक्तिरूपं दृष्टवान् अपि तत्र तृतीया एकवचनरूपं किमस्ति तृतीयविभक्ति एकवचनरूपं दृष्टवान् इति भवान् शब्दस्य तृतीया एकवचनं रूपं किमस्ति
दृष्टवता न
हा दृष्टवता समीचीनं दृष्टवता चतुर्थी अस्ति दृष्टवते
दृष्टवते
पञ्चमी षष्ठी अस्ति
दृष्टवतः
दृष्टवतः सप्तमी दृष्टवती अतः अत्र दृष्टवतः इति षष्टि
ओके
तस्य मनः
ओके खिन्नः जातम्
खिन्नं जातम् हा
मनः नितरां खिन्नं जातम्
हा तत्र कीदृशभावः अस्ति अत्र
कीदृशभावः
खिन्नं जातम्
मनः खिन्नं जातम्
मनः खिन्नं जातं मनः विशेष्यम् अस्ति विशेषणम् अस्ति
विशेष्यम् अस्ति मनः मनसि मनांसि अरे वाट् इस् दिस्
हलो
या
हलो गुड् मार्निङ्ग् उमा मीनाक्षी मेडम्
अन्य कोऽपि पठेत् भगिनि तर्हि
ओ या ओके
ओके अस्तु अन्य कोऽपि पठेत् तर्हि तत्र उषा भगिनी न क्षम्यतां तत्र
महोदय ऐ केन् रीड्
अस्तु अस्तु तर्हि तत्र भवती तत्र मनः नितरां खिन्नं जातं
अस्तु महोदय रामरमणस्य मनः नितरां खिन्नं जातं
तत्र मनः इति विशेषं
खिन्नम् इति विशेषणं मनः नितरां खिन्नं जातं खिन्नं जातं सैड्नेस् औडु विशेष पर्यायपदं
दुःखितं
दुःखं
दुःखितं दुःखितम् अभवत्
दुःखितम् अभवत् सः वृद्धम् उपसर्प्य वस्त्रेण वीजनं कृतवान् रामरमणः वृद्धं समीपे गत्वा वस्त्रेण वृद्धस्य समीपे गत्वा वस्त्रेण वीजनं कृतवान् बीजनं फ्यानिङ्ग्
समीचीनं तत्र तत्र
वायु
व्यजनम् इति
व्यजनम्
व्यजनं
वस्त्रेण
तत्र वस्त्रव्यजनं कृतवान् वस्त्रमेव व्यजनं वस्त्ररूपेण व्यजनं वस्त्रं
व्यजनम्
इव तत्र तस्य प्रयोगं कृतवान्
वृद्धः यदा नेत्रे उन्मीलितवान्
तदा क्षम्यताम् उपसर्प्य कृपया
उपसर्प्य नाम सर्पति इति धातुः अस्ति अत्र उप इति उपसर्गः ल्यबन्तम् उपसर्प्य नाम समीपं गत्वा उपसर्प्य नाम समीपं गत्वा इति अर्थः
धन्यवादः
वृद्धः यदा नेत्रे उन्मीलितवान् तदा रामरमणः तस्मै पानाय जलं दत्तवान् वृद्धः यदा नेत्रे उन्मीलितवान् यदा नेत्रं ओपन्ड् हिस् ऐस्
उन्मीलितवान्
नेत्रे द्वयोः द्विवचनम् अस्ति
तत्र विभक्ति का तत्र
नेत्रे उन्मीलितवान्
विभक्ति का नेत्रे
नेत्रं नेत्रे नेत्राणि
नेत्राणि वचनं किन्तु विभक्ति प्रथमा वा द्वितीया वा
नेत्रे उन्मीलितवान् द्वितीया विभक्ति
कर्मपदं
कर्मपदं
वृद्धः किम् उन्मीलितवान्
नेत्रे उन्मीलितवान् वृद्धः नेत्रे
उन्मीलनम् इति कार्यस्य कर्मपदं क्रियायाः कर्मपदं
नेत्रे आं महोदय उन्मीलनक्रियायाः कर्मपदं नेत्र द्वितीयविभक्ति
समीचीनं
नेत्रे उन्मीलितवान् तदा रामरमणः उन्मीलितवान् इति शत्रन्तपदम् उन्मीलितवान् पर्यायपदम् न
शत्रन्तपदम्
उन्मीलितवत् प्रत्यय उन्मीलितवान् पर्यायपदं किं महोदय उन्मीलितवान् ओपन्ड् हिस् ऐस् निमिष उन्मिषम्
उन्मेषं कृतवान् तत्र तत् रूपं न जानामि भगिनि, उन्मेषं तत्र कोऽपि रूपं न स्मरामि भगिनि.
कंसन् ललितासस् उन्मीलितवान् तदा रामरमणः
उन्मेषनिमिषोत्पन्नः
उन्मेषनिमिषोत्पन्नः
उन्मेषनम् इति
उत् मिल् धातु अस्ति, उत् अधिकं मिल्
उन्मिलि.
वृद्धः यदा नेत्रे उन्मीलितवान् तदा रामरमणः तस्मै पानाय जलं दत्तवान्. ओके, रामरमणः वृद्धस्य कृते
उद्घाटितवान् अपि इति अपि वक्तुं शक्नुमः खलु.
उद्घाटितवान् तस्मै पानाय
सम्यक् अस्ति. उद्घाटितवान् तत्र आङ्ग्लभाषा इव अस्ति. उन्मीलितवान् इव सम्यक्. तदा रामरमणः किं कृतवान्?
पानाय जलं दत्तवान्, वृद्धस्य कृते जलं दत्तवान्.
तत्र तस्मै इति अपि चतुर्थी
पानाय अपि चतुर्थी, यतोहि दत्त इति कृते, दत्त इति कृते चतुर्थी एव अपेक्षते.
किन्तु समीचीनं, किन्तु तस्मै इति धानकार्या कार्यम् अस्ति इति कृत्वा, किन्तु पानाय इति चतुर्थी पानार्थम् इति
किमर्थं
नाम कारणं तत्र किमर्थं सः जलं दत्तवान्?
पानाय जलं दत्तवान्.
अतः तत्र तस्मै पानाय, तस्मै इति धानकार्यार्थं, पानाय इति किमर्थम् इति तस्य उत्तरं. तेन कारणेन सः जलं दत्तवान्
पानाय जलं दत्तवान्,
पानार्थं जलं दत्तवान्.
वृद्धस्य पार्श्वे तदीयवस्तूनां बन्धः पतितः आसीत्. वृद्धस्य पार्श्वे तस्य वस्तूनां बन्धः
आसीत्,
तस्य वस्तूनि बन्धः, वस्तूनां बन्धः पतितः आसीत्. पतितः आसीत्, ओके. तं
तत्र बन्धः पतितः, पतितः इति तप्रत्ययः,
तप्रत्ययः.
पतितः कः? पतितः बन्धः, पतितः
बन्धः पतितः आसीत्.
तत्र तप्रत्ययस्य साधारणतया तप्रत्ययस्य कर्मणर्थे एव भवति, कर्मार्थे एव भवति. नाम तत्र मया पठितं पुस्तकम् इति पुस्तकं, पठितं पुस्तकं, पुस्तकं पुस्तकम् इति कर्मपदं, पठितम् इति पुस्तकस्य विशेषणम्. किन्तु अत्र कर्तृ अर्थे अस्ति, नाम कः पतितः? बन्धः,
बन्धः पतितः,
बन्धः एव पतितः. अतः यत्र तत्र पतनम् इति अस्ति तत्र गम् गत्यार्थकधातूनां तत्र
कर्तृर्थे भवति,
प्रयोगः भवितुम् अर्हति,
वर्तमानार्थे अपि भवितुम् अर्हति. गम् धातु,
न गम् धातोः वर्तमानार्थे नास्ति सर्वदा, तत्र
कर्तृर्थे, कर्तृर्थे,
कर्तृर्थे नाम बन्धः एव पतितः खलु, बन्धः, बन्धः पतितवान् इति अर्थः. तत्र बन्धः एव पतितवान्, बन्धः पतितवान् आसीत् इति
अर्थः.
अग्रे
तं
कृपया पानाय रूपमपि वदतु. पानाय
तत्र पानम् इति पदस्य चतुर्थी भगिनि,
पानमेव पदमस्ति खलु,
पानमेव पद,
पादातोः पानम्,
नाम पिबति तस्य लुडन्तरूपं पानम्.
ओहो, धन्यवादः, धन्यवादः.
तस्य पानम् इति पदस्य चतुर्थी पानाय, अत्र तस्य प्रयोगः पानार्थं. समीचीनं, समीचीनं भगिनि.
तं स्वशिरसि संस्थाप्य वृद्धेन सह प्रस्थितं तेन.
तत्र सम् इत्युक्ते
तं स्वशिरसि संस्थाप्य, हिस् ओन् हेड्, रामरमणस्य
इत्युक्ते किन्तु तम् इत्युक्ते किम्?
ओ तं स्वशिरसि वृद्धस्य पार्श्वे पतितः आसीत्, सो तं न बन्धः,
तं बन्धम्, तं बन्धं,
तं बन्धं स्वशिरसि संस्थाप्य, putting it in his own head, स्वशिरसि संस्थाप्य संस्थाप्य वृद्धेन सह प्रस्थितं तेन, वृद्धेन सह वदस् प्रस्थितं तेन महोदय, तेन
तत्र प्रस्थितवान् इति अर्थे, किन्तु तत्र प्रस्थितम् इति तत्र तेन सह प्रस्थितं, तत्र
त प्रत्ययः
कर्मणि, कर्मणि प्रयोगः त प्रत्ययः,
प्रस्थितं तेन,
मया प्रस्थितं, तत्र
प्रस्थितं जस्ट् स्टेड् इस् दट् द मीनिङ्ग् आर्
न न न प्रस्थितं नाम सः अग्रे गन्तुम् अग्रे गन्तुं
गन्तुं
प्रस्थितवान्,
ओके ओके अग्रे गन्तुं तेन सह प्रसिद्धः
सिद्धः अभवत् तेन वृद्धेन सह प्रस्थितं तेन, नाम यदा वृद्धः अग्रे गन्तुं शक्नोति तदा अहमपि
हि आल्सो रेडी
अहम् अहं सिद्धः,
ओके अस्तु महोदय, तं स्वशिरसि संस्थाप्य वृद्धेन सह प्रस्थितं तेन, ओके
इति अस्ति प्रायशः तत्र वृद्धः अपि तत्र गन्तुं शक्तवान् इति मन्ये, तत्र जलं सर्वं पीत्वा सः तत्र अग्रे गन्तुं शक्तवान् इति
सिद्धः भवति
सिद्धः भवति इति मन्ये, अस्तु समीचीनम् अस्तु अग्रे वेदभगिनी अग्रे
महोदय तत्र मिष् इति धातुः खलु उन्मेष उन्निमिषम् इति तत्र उत् मिष् उन्मेषणम् इति भवति, मिष् इति दृष्टवती महोदय, मेषणम् इति भवति लुडन्तपदम्, उन्मेषणम् इति भवति
उन्मेषणम् अस्तु
भाव
भावार्थ धन्यवादः भगिनि उन्मेषणम् अस्तु तत्र तव तु उन्मिषितवान् वा तत्र किम्
अस्ति तत्र तव तु उन्मिष्टवान् इति भवति
उन्मिष्टवान्
उन्मिष्टवान् उन्मिष्टः इति ता प्रत्ययः
अपि च अस्तु धन्यवादः समीचीनं भगिनि उन्मिष्टः अस्तु उन्मिष्टवान् उत्तममस्ति अपि तत्र अहम् एतत् बहुवारम् उक्तवान् पूर्वं किन्तु सर्पति अपि सर्पः तत्र
सृधातु
न न सृधातु नास्ति सर्प सर्प् इति एव धातुः
सृप् न ऐ थिङ्क् सृप् धातु महोदय
न सृप् इति तत्र निजन्ते सर्प सर्प इति भवति महोदय सर्पयति
किन्तु सर्पति इति नास्ति वा सृप् सृप् इति धातुः किन्तु सर्पति इति क्रियापदमस्ति खलु
सर्पति
इति सर्पति सृप् इति धातुः तत्र
सृप् इति धातुः सर्पति इति न अभवत्
गुणकार्यं भूत्वा अरु भवति न सर्पति
सर्पति इति क्रियापदमस्ति तस्य धातुः
इत्यनेन अर् भवति सर्पति
इति वा भगिनि तर्हि केवलं
सर्प 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 भवति
अस्तु 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 समीचीनं
गणं किमस्ति न जानामि तत्र भ्वादिगणे वा
भ्वादिगणे एव
ओके
किन्तु तत्र सृप्य इति भवति सर्प्य इति न भवति निजन्ते सर्पयति इति भवति तत्र प्रायशः उपसर्प्या इति भवति
उपसर्प्य तत्
लेप्
लेप् लेप् सृप्य इति अस्ति महोदय उपसृप्य किन्तु अस्मिन् कथायां तु सर्प्य इति उपसर्प्य इति अस्ति
कीदृशं सत्यं सत्यं सत्यम् अस्तु 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 तर्हि तत्र प्रायशः निजन्ते तत्र अस्तु अस्तु उपसर्प्य अस्तु तत्र किन्तु तत्र कर्तरि तत्र सर्पति इति अस्ति अपि तत्र सर्पति अपि सर्पः तत्र प्रसिद्ध प्रसिद्धा कथा अस्ति
एवं वा
इति का कथा इति कोऽपि जानाति वा
सर्पति इति सर्पः इति नाम
इति सत्यं भगिनि सर् इति अस्ति किन्तु तत्र सर्प तत्र सर्प सर्प इति कोऽपि उक्तवान् तदनन्तरं तत्र एकः ऋषिः
एक्चुवल् सर्पः वन्दबुद् नोबडि बिलीव्
न न एकः सः सर्पः एव भूत्वा तत्र भूमौ पतितवान् तत्र इन्द्रस्य स्थाने सः कः राजः राजा अस्ति तत्र महाराजः तत्र इन्द्रपदवीं सः मनुष्यः किन्तु इन्द्रपदवीं प्राप्तवान् तत्र न इति आरभ्य तस्य नाम इदानीं न स्मरामि तत्र किमस्ति नहुषा वा
निमिः वा
नहुषा कोऽपि स्मरति वा तत्र
भागवते अस्ति महोदय
सः सचिं द्रष्टुम् इच्छति तदा तत्र तस्य गर्वेण सः वदति तत्र सप्तर्षयः तस्य तत्र ते एव तत्र तस्य वहनं कुर्वन्तु इति अतः तत्र ते तं वहन्ति सप्तर्षयः तदा सः तत्र अगस्त्यमुनिं दृष्ट्वा सः वदति सर्प सर्प नाम तत्र शीघ्रं गच्छतु शीघ्रं गच्छतु तदा तत्र अगस्त्यमुनिः शापं ददाति अस्तु सर्प इति इच्छति वा सर्प एव भवान् इति किन्तु तत्र महाराजस्य नाम इदानीं न स्मरामि अतः तत्र यदा यदा तत्र सर्प इति उपसर्ग
नहुष एव महोदय नहुष एव
नहुषः नहुष एव अस्तु अस्तु यत् यदा तत्र उपसर्प्य इति पदं पश्यामि तदा एतां कथां स्मरामि तत्र सर्प इति अस्तु समीचीनं धन्यवादः अस्तु अग्रे सरामः तर्हि तत्र वेदा भगिनी अग्रे पठति वा
तदा वृद्धः अवदत् किम् एतत् क्रियते भवता महोदय तदा वृद्धः पृच्छति रामरमणं प्रति पृच्छति किम् एतत् रामरमणं पृच्छति किम् एतत् क्रियते भवता महोदय भवान् एतत् कार्यं किं करोति इति
एतत् किं क्रियते किमर्थम् इति नास्ति किं कार्यं कुर्वन् अस्ति
किं कार्यं कुर्वन् अस्ति आम् महोदय इति
अत्र क्रियते इति क्रियते इति तत्र कर्मणि रूपम् अस्ति खलु
आं कर्मणि रूपम् अस्ति भवता महोदय
भवता किं क्रियते भवान् किं कुर्वन् अस्ति
अहं तु निम्नजातीयः अहं तु निम्नजातीय इत्युक्ते किं वदामि तस्य सिनोनिम् निम्नजाति इत्युक्ते तत् समासपदमस्ति तत्र इति मन्ये न निम्नजाति इति समासः निम्नजातीयः इत्युक्ते अहं निम्नजातिं जातः
नीचजाति
जातः जन्म
मम जाति तत्र मम जाति तत्र
निम्नः आसीत्
निम्ना अस्ति
निम्ना आसीत् महजाति निम्ना आसीत्
निम्ना अस्ति अस्ति आसीत् न
अस्ति भवान् च उच्चकुलीयः भवान् तु उच्चकुलीयः इत्युक्ते भवान् किम् उच्चकुलीयः इत्युक्ते हायर्
उच्चकाले नाम तत्र उपरि अस्ति इति कृत्वा तत्र निम्न इति
इति
उच्चजातीयः
भवता मम वस्तूनि न ओढयानि
ओढव्यानि
ओढव्यानि मम भवता मम वस्तूनि न ओढयामि इत्युक्ते न
ओढव्यानि
ओढव्यानि इत्युक्ते ओढ इत्युक्ते ऊहन मीन्स् क्यारिङ्ग्
तत्र यत्र तत्र वोढव्यानि अस्ति तत्र तत्र सर्वदा तत्र कर्मणि रूपम् एव भवति खलु मया कर्तव्यं मया करणीयम् अतः तत्र भवता मम वस्तूनि
न
वोढव्यानि तत्र वस्तूनि इति पदस्य विभक्ति का
वस्तूनि इति मम वस्तूनि इति कर्मपदं द्वितीया विभक्ति बहुवचने
कर्मपदं समीचीनं किन्तु तत्र वोढव्यानि इति अस्ति चेत् तत्र कर्मणि प्रयोगः इव अस्ति इति कृत्वा कर्मपदस्य का विभक्ति
कर्मपदस्य च तृतीया
प्रथमा विभक्ति
प्रथमा विभक्ति कर्तृपदस्य तृतीया खलु
तदेव
भवता इति कर्तृपदं भवता इति कर्तृपदं तृतीया विभक्त्यां मम वस्तूनि इति तत्र कर्मपदं किन्तु प्रथमाविभक्ति प्रथमाविभक्ति अस्ति वस्तूनि भवता मम वस्तूनि न वोढव्यानि वोढव्यानि इति विशेषणं भवति वोढव्यानि विशेषणं भवति वस्तूनि इति पदस्य
महोदय तत्र एकः सन्देहः अस्ति मम तत्र सर्वदा वयं वोढुं वोढव्यानि इति शृण्मः किन्तु वह् धातुतः आगतः पदं तत्र अन्यर् अथवा किम् अन्यत् कर्तव्यं तव्यत् अथवा अन्यर् तथा एव तत्र यथा वर्गे भागं वोढुं न शक्नोमि तुमुन् प्रत्ययः अद्य अहं वर्गे भागं न वहामि इत्यपि वक्तुं शक्नुमः खलु महोदय
समीचीनमिति मन्ये भगिनि
तत्र वह् इति तत्र वोढ् वोढा वोढव्यात् एतानि सर्वाणि रूपाणि वह् धातुतः आगतः किन्तु कुत्रापि न श्रुतवती भागं न वहामि इति किन्तु वक्तुं शक्नुमः खलु
सत्यं सत्यं वक्तुं शक्नुमः किन्तु प्रायशः इदानीं तत्र एषः प्रयोगः प्रसिद्धः अभवत् अतः तत्र वोढुम् इति एव तत्र प्रसिद्धः
वोढुं न शक्नोमि इति
एव तत्र इति एव प्रसिद्धः अस्ति न वहामि नाम तत्र न वहामि इत्युक्ते तत्र मम इच्छा नास्ति अतः अहं न वहामि किन्तु वोढुम् इति नाम वोढुं न शक्नोमि अतः तत्र इच्छा अस्ति किन्तु तत्र सामर्थ्यं वा अथवा अन्येन कारणेन न कर्तुं शक्नोमि इति प्रायशः तत्र किञ्चित् अर्थभेदः भवति किं
तर्हि तत्र मया न उह्यते प्रायशः मया न अहम् इति न वदामः चेत् मया न उह्यते अद्य इति
प्रायः
भवति वा इति
एतत् न जानामि भगिनि चिन्तनीयमस्ति किन्तु इदानीं न जानामि
धातोः त प्रत्ययः तु ऊढः भवति व अधिक ऊढ वोढ
सम्प्रसारणं भूत्वा व ऊ भवति सत्यम्
इति अस्ति तर्हि तस्मिन् विषये किञ्चित् चिन्तनं करणीयमस्ति भगिनि
अस्तु
अस्तु किन्तु उत्तमप्रश्नः तत्र किमर्थं तत्र एषः एव प्रयोगः तत्र प्रसिद्धः अस्ति इति अस्तु अग्रे वेदा भगिनि
एतत् उचितं न एतत् कार्यं न उचितं नास्ति कृपया न करोतु इति
वृद्धः समीचीनं
तत् श्रुत्वा रामरमणः अवदत् एतत् वचनं श्रुत्वा वृद्धस्य वचनं श्रुत्वा रामरमणः वदति भगवतः दृष्ट्या सर्वे समानाः भगवतः दृष्ट्या ईश्वरस्य दृष्ट्या इत्युक्ते भगवान् भगवतः षष्टिविभक्ति भग न चतुर्थी वा भगवतः दृष्ट्या आं चतुर्थी न सारि षष्टिविभक्ति भगवतः
दृष्ट्या इति विभक्ति का तत्र
दृष्ट्या रमया इत्युक्ते रमया रमा दृष्टि दृष्टया दृष्ट्या रमया
रमया नदी
ओ नदी नद्यौ नद्यः नदीं नद्यौ नद्यः नद्या तृतीया विभक्ति
द्विचक्रिका इति नास्ति किन्तु नदी दृष्टिः दृष्ट्या
भगवतः दृष्ट्या सर्वे समानाः सर्वे मानवः सर्वे जन्तवः इति वक्तुं शक्नुमः वा
सर्वे मानवाः अथवा मनुष्याः
भगवतः दृष्ट्या सर्वे समानम्
तत्र जीवाः अपि वक्तुं शक्नुमः सत्यं
समानं जीवः समानं सन्ति अतः उच्च नीच भावस्य न कोऽपि अर्थः तदेव अतः उच्चनीचभावस्य कोऽपि अर्थः नास्ति इत्युक्ते कोऽपि उच्चः नास्ति कोऽपि नीचः नास्ति सर्वे समानमस्ति इति
उच्चजातीयः अथवा नीचजातीयः अथवा उच्चकुलीयः अथवा नीचकुलीयः इति
कोऽपि नास्ति सर्वे
तस्य अर्थः नास्ति अपि
भवान् तु वृद्धः भवान् तु वृद्धः तत्र केवलं भवान् तु वृद्धः एव तस्य कोऽपि स्पष्टीकरणं न करणीयम्
आवश्यकं नास्ति समीचीनम् अग्रे
वृद्धस्य भवतः सेवा मम कर्तव्यं वृद्धस्य भवतः सेवा मम कर्तव्यं
वृद्धस्य
भवतः अपि षष्ठीविभक्ति
भवतः अपि षष्ठी वृद्धस्य भवान् वृद्धः
भवान् वृद्धः तदेव भवान् वृद्धः
तस्य षष्ठी
तस्य षष्ठी भवतः वृद्धस्य सेवा सेवा करणीयम् इति
मम कर्तव्यम् अथवा मया करणीयं
मया करणीयं
मम कर्तव्यम् अस्ति मम कर्तव्यम् अथवा कर्तव्यम् इति पदं नाम मम कर्तव्यम् अस्ति भवतः सेवा
सेवा
महोदय तत्र तत्र एकः प्रश्नः कर्तव्यम् इति पदस्य कृते तत्र मया अपि मम अपि द्वयोः अपि प्रयोगः भवति वा तत्र भवति एव
यदि तत्र तत्र किम् अस्ति भगिनि इदानीं तत्र समीचीनप्रश्नः यदि तत्र कर्मणि रूपे आसीत् तत्र मया इति आसीत् चेत् तत्र समानार्थकम् अस्ति किन्तु तत्र वाक्यद्वयम् अस्ति नाम तत्र मया इति तत्र कर्मणि रूपे अपि भवितुम् अर्हति अत्र मम कर्तव्यम् इति अस्ति खलु
मम कर्तव्यं तत्र सामान्यरूपं भवति वाक्यस्य मम कर्तव्यम् इति किन्तु तत्र सामान्यतया अनियर्तव्यत् एतयोः कर्मणि प्रयोगः भवति अतः तत्र सामान्यतया मया इति भवति किन्तु कर्तव्यम्
इति
किन्तु कर्तव्यम् इति पदस्य कृते सर्वदा शृण्मः मम कर्तव्यं मम कर्तव्यम् इति
अत्रापि नामपदमेव यदि तत्र कर्मणि अर्थे पूर्वं यत्र आसीत् तत्र वस्तूनि न वोढव्यानि वोढव्यानि अपि नामपदमेव अस्ति किन्तु अत्र किम् अस्ति भगिनि नाम एतत् मम कर्तव्यम् अस्ति मम कर्तव्यं किम् अस्ति भवतः सेवा एव मम कर्तव्यम् अस्ति इति तत्र इति एकं रूपं यदि तत्र कर्मणि तत्र साधारण तत्र यदा वयम् अनियर्तव्यत् प्रत्ययस्य अध्ययनं तत्र अध्ययनं कुर्मः तत्र प्रथमवारं कुर्मः तत्र तदा नियमः कः तत्र मया इति भवति अपि सेवा इति एव तत्र अहम् इति स्थाने मया अपि सेवा इति कर्मपदम् अस्ति अहं सेवां करोमि इति स्थाने मया सेवा कर्तव्या इति भवति
सेवा कर्तव्या इति भवति
अथवा करणीया इति भवति यदि तत्र कर्मणि रूपे भवतु इति चिन्तनम् अस्ति चेत् अत्र किमस्ति एतत् मम कर्तव्यं किमस्ति मम कर्तव्यं भवतः सेवा एव मम कर्तव्यम् तर्हि तत्र किं भवति यदि तत्र मया कर्तव्या सेवा मया कर्तव्या तत्र कर्तव्या इति विशेषणं भवति विशेष्यमस्ति सेवा
सेवा
हा अत्र किमस्ति तत्र उद्देशविधेयभावः मम कर्तव्यं किं मम कर्तव्यं भवतः सेवा
किम् उद्देश्यविधेयभावः
उद्देशविधेयभावः नाम तत्र एषः कः एषः मम मित्रम् तस्मिन् विषये किमपि उक्तमस्ति अत्र कोऽपि पुरुषः अस्ति एषः कः एषः मम मित्रम् मित्रमिति नपुंसकलिङ्गपदं किन्तु एषः इति अस्ति तत्र तु तत्र वयं तत्र किं तत्र विशेषणम् इति न वक्तुं शक्नुमः तत्र तस्मिन् विषये किमपि अधिकम् अस्ति, अतः एव तत्र तत्र अत्रापि तत्र मम कर्तव्यम् अस्ति, मम कर्तव्यं किम् अस्ति, भवतः सेवा. अतः तत्र तत्र किं लिङ्गसामान्यं भवति इति किमपि नास्ति अत्र.
अस्तु,
अतः मम कर्तव्यं भवतः सेवा. किन्तु यदि मया इति आसीत् चेत् सेवा मया
कर्तव्या
इति भवेत्.
इत्युक्ते तत्र उद्देशम् अनुसरति, उद्देशविधेयः,
तत्र विधेयभावः इति अस्ति. नाम तत्र उद्देशविधेयभावः, तत्र
सेवा एव उद्देशः अथवा उद्देशः,
उद्देशविधेयभावः. तत्र तस्य नियमः प्रायशः तत्र अग्रे गत्वा तत्र न्यायशास्त्रवर्गे तत्र वयं
तत्रापि आगच्छति वा? अस्तु महोदय,
अत्रैव यदा तत्र वयं बहुवारम् उक्तवन्तः तत्र आश्रयः पृथिवी, तत्र गन्धस्य आश्रयः पृथिवी इति उक्तवन्तः तत्र. हा, नाम पृथिवी इति अस्ति, पृथ्वी स्त्रीलिङ्गे अस्ति, किन्तु आश्रयः इति अस्ति. हा, अतः तत्र किमर्थं तादृशम् अस्ति इत्युक्ते तत्र विशेषणविशेषभावः नास्ति, किन्तु तत्र उद्देशविधेयभावः अस्ति.
अस्तु,
महोदय, किञ्चित् वदामि वा? साधुवान् वदतु. भाषापाक पाठ्यक्रमे यदा अहं पठितवती तदा तत्र लिखितम् आसीत् विशेषणविशेषभावः अस्ति चेत् यद्लिङ्गं यद्वचनमस्ति खलु, तथा तत् विशेषं यत् अस्ति तत् वयं जानीमः. उद्देशविधेयभावमध्ये यद्लिङ्गं यद् वचनं इति न, तथा यत्किमपि वयं वदामः विशेषस्य विषये तत् नूतनविषयः अस्ति इति किञ्चित् अहं स्मरामि.
तदेव अस्ति, तदेव
सत्यं,
तदेव तदेव अस्ति. तत्र उद्देशविधेयभावः इति सत्यं भगिनि, तदेव अस्ति. समीचीनम्. अत्र अपि तादृशी स्थितिः अस्ति इति मन्ये, अत एव तत्र मम कर्तव्यम् इति अस्ति, सेवा इति अस्ति, तयोः मध्ये विशेषणविशेषभावः नास्ति.
शोभा,
धन्यवादः.
एकवारं गीतासोपनं द्वितीयभागस्य समये भवती एव एकदा उद्देशविधेयभावविषये प्रेषितवती खलु,
मूकं करोति वाचालम् इति.
भवती एव प्रेषितवती.
सत्यम्, अहमपि स्मृतवती तत् यत् तत्र नीलेश महोदय पाठितवान् इति.
भगिनी, भवत्याः स्मरणशक्तिः तीक्ष्णा.
न महोदय, तत्समये मुखं करोति वाचालं समये अहं न स्मृतवती, शोभा भगिनी एव स्मारितवती.
न न,
अद्य अहं स्मृतवती.
उत्तमम् उत्तमम् उत्तमम्. अस्तु, अग्रे सरम, समीचीनम्. अस्तु, अग्रे तत्र एतावत् तत्र हर्षदा भगिनी अथवा पल्लवी भगिनी, तत्र पल्लवी भगिनी किञ्चित् अग्रे वदति वा?
तत् श्रुत्वा रामरमणः अवदत्, भगवतः दृष्ट्या सर्वे समानाः. तावता कनकसुन्दरी तत्र आगता, पुत्रस्य सहाय्यप्रवृत्तिं दृष्ट्वा सा नितरां सन्तुष्टा. तावता तस्य माता रामरमणः, रमणस्य माता कनकसुन्दरी तत्र आगतवती.
तत्र आगतवती
पुत्रस्य सहाय्यप्रवृत्तिं दृष्ट्वा,
दृष्ट्वा
सा नितरां सन्तुष्टा. तर्हि कर्तरिप्रयोग एव अस्ति, तुष् धातु अकर्मक अस्ति, अतः अत्र तप्रत्ययः सन्तुष्ट, सा सन्तुष्टा, कर्तरि
सन्तुष्टा अभवत्, सा सन्तुष्टा अभवत्
अभवत्.
सा नितरां सन्तुष्टा अभवत् सा.
पुत्रम् आशिषा अनुगृह्णात् गृह्णति सः सा अवदत् पुत्रम् आशिषा अत्र बहुवचनमस्ति वा
न न न तत्र अस्तु तत्र सा अवदत् तत्र सा अवदत् सा नाम कनकसुन्दरी
कनकसुन्दरी
सुन्दरी अवदत् हा तत्र अनुगृह्णति इति अस्ति अनुगृह्णति इति कीदृशपदमस्ति
शत्रन्तपदमस्ति
हा उत्तमं भगिनि हा अतः अनुग्रहणं करोति तस्मिन्नेव समये सा वदति अपि खलु अतः अनुगृह्णति सा पठन्ती सा इति तादृशम् अनुगृह्णति सा हा अनुगृह्णति सा प्रथमाविभक्ति एकवचने अतः तत्र पुत्रं पुत्रम् अनु पुत्रस्य अनुग्रहणं करोति खलु किन्तु तत्र आशिषा इति मध्ये अस्ति अतः तत्र आशिषा इति तत्र केन केन अथवा कया इति तत्र आशिषा इति तृतीयविभक्ति आशीर्वादेन अनुग्रहणं करोति सा इति आशिषा इति तृतीया विभक्ति अस्ति पुत्रमिति पुत्रम् अनुगृह्णाति नाम पुत्रम् इति एव तत्र कर्मपदं पुत्रस्य अनुग्रहणं करोति किन्तु आशिषा आशिषा सा अतः तत्र आशिषा इति माध्यमं तत्र तेन तेन सा अनुगृह्णाति आशिषा इति आशीः तत्र आशिषा इति पदस्य लिङ्गं न स्मरामि कोऽपि जानाति वा स्त्रीलिङ्गम् एव वा धन्यवादः अतः तत्र पुत्रं तया आशिषा तया आशिषा अनुगृह्णति सा अवदत् हा इति अग्रे
वत्स वत्स त्वया वृद्धस्य सेवायां प्रवृत्तिः दर्शिता त्वया दर्शिता कर्मणि प्रयोगः किं प्रवृत्तिः स्त्रीलिङ्गि अस्ति अतः दर्शिता त्वया प्रवृत्तिः दर्शिता
समीचीनं त्वया प्रवृत्तिः दर्शिता प्रवृत्तिः कर्मपदं प्रवृत्तिः दर्शिता कस्मिन् विषये प्रवृत्तिः दर्शिता
सेवा
सेवायां
कस्य सेवा तर्हि वृद्धस्य सेवा
सेवायां सप्तमी कस्मिन् विषये इति अतः तत्र सप्तमी भवति हा वृद्धस्य सेवायां प्रवृत्तिः दर्शिता अस्ति त्वया
एतादृशी प्रवृत्तिः सदा भवतु त्वयि तर्हि त्वयि सप्तमी एकवचनं तर्हि एतादृशी प्रवृत्तिः सर्वदा भवेत् इति सा तस्य इच्छा
नाम तत्र प्रवृत्तिः इति तत्र प्रवृत्तिः त्वयि इति सप्तमी विभक्ति अस्ति किमर्थं तत्र सप्तमी इत्युक्ते नाम भावः अस्ति भावः अस्ति खलु प्रवृत्तिः इति भावः अतः तत्र भावः तत्र विश्वासः स्नेहः अतः तत्र तत्र सर्वदा तत्र कस्मिन् अस्ति इति एव भवति खलु अतः तत्र प्रवृत्तिः त्वयि सदा भवतु इति अत्र सप्तमी भवति
तदा अवश्यमेव त्वया भगवतः कृपापात्रता प्राप्यते एव यदि भवान् एतादृशी प्रवृत्ति दर्शयति तर्हि भवान् भगवतः कृपायाः पात्रता प्राप्स्यते
नाम त्वया त्वं भगवतः कृपापात्रतां प्राप्स्यति इति खलु प्राप्स्यति अत्र प्राप्स्यते त्वया प्राप्स्यते प्राप्स्यसि क्षम्यतां त्वं प्राप्स्यसि प्राप्नोषि त्वं प्राप्नोषि इति लट्लकारे किन्तु प्राप्स्यसि इति कर्तरि अतः तत्र कृपापात्रतां प्राप्नोषि अथवा कृपापात्रता प्राप्स्यते त्वया एव नाम तत्र सन्देहः नास्ति निश्चयेन निश्चयेन प्राप्स्यसे प्राप्स्यते वदतु भगिनि
महोदय एका शङ्का अस्ति अत्र त्वयि अथवा प्रवृत्तिः सेवायां प्रवृत्ति अत्र किमस्ति स्थानवाचक सप्तमी अस्ति खलु तत्र कुत्र प्रश्नः न करणीयः वा
न कर्तुं शक्नुमः अतः एव तत्र त्वयि
यतः महोदय प्रवृत्ति स्त्रीलिङ्गी अस्ति कस्मिन् कथं प्रष्टव्यम् अतः अहं चिन्तयामि कुत्र
न कस्मिन् एव तत्र प्रवृत्तिः स्त्रीलिङ्गपदम् अस्ति किन्तु तस्य अधिकरणम् इति एव विषयः नाम तत्र तस्य स्थानमिति भिन्नं खलु स्थानस्य लिङ्गं भिन्नं भवेत् नाम तत्र
वैषयिक अधिकरण इति
नाम तत्र नाम तत्र लेखनी अस्ति तत्र कस्मिन् लेखनी अस्ति
कस्यां प्रवृत्ति न भवेत्
न न किमर्थं तत्र किमर्थं न
सेवा स्त्रीलिङ्गी प्रवृत्ति स्त्रीलिङ्गी
तद् भवतु किन्तु प्रवृत्तिः कुत्र अस्ति कस्मिन् पुरुषे अस्ति तर्हि तत्र कस्मिन् अथवा कस्यां महिलायाम् इति अत्र एव तत्र यस्मिन् अस्ति तस्य लिङ्गम् अनुसरति खलु न तु तत्र
तत्र रक्तवर्णः पुष्पे अस्ति इति अस्तु 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 धन्यवादः ज्ञातवती किञ्चित् किञ्चित् विलम्बः जातः ज्ञातुं धन्यवादः महोदय
अतः तत्र सम्बन्धः नास्ति अस्तु तदा अवश्यमेव त्वया भगवतः कृपापात्रता प्राप्स्यति एव एव इति तत्र सन्देहः नास्ति इति अस्तु अग्रे तत्र सुजाता भगिनी अग्रे
महोदय अम्ब तव अपेक्षा एव आदेशः मम तव अम्ब सम्बोधन तव अपेक्षा मातायाः अपेक्षया
मातायाः इति नास्ति खलु तत्र किन्तु माता इति प्रथमविभक्तिरूपम् अस्ति किन्तु प्रातिपदिकं किम् अस्ति
मातृ
मातृ तस्य षष्टी एकवचनं किमस्ति
मातुः
उत्तमं मातुः अपेक्षा
मातुः अपेक्षा एव आदेशः मम
मम कृते मातुः अपेक्षा एव आदेशः
आदर्शः
न आदेशः आदेशः नाम किम्
आदर्
न आदर् इति न आदेशः आर्डर् आर्डर्
आदर् महोदय
नाम तत्र यत् सा वदति तदेव अहं करोमि
करोमि अतः परोपकारादिषु कदापि उपेक्षां न प्रदर्शयिष्यामि अहम् इति अवदत् रामरमणः अवदत् उक्तवान् परोपकारविषये कदापि उपेक्षा न प्रदर्शयामि
समीचीनं भगिनि उपेक्षां न प्रदर्शयामि उपेक्षां नाम तद् न करणीयं तद् तादृश तादृशकार्याणि अहं न
करोमि
इति तादृशचिन्तनं मम कदापि न भवति अतः तत्र नाम तस्मिन् तत्र परोपकारादि कार्येषु कार्यादिषु तत्र तादृशकार्येषु मम श्रद्धा मम आदरः सदा भवति अतः तत्र न कदापि उपेक्षां प्रदर्शयिष्यामि नाम सर्वदा तत्र यत्र तत्र तादृशी तत्र अवकाशः तादृशः अवकाशः भवति परोपकार परोपकार अवकाशः भवति तदा अहं निश्चयेन परोपकारं करोमि एव करिष्यामि एव इति अग्रे
अग्रे अयमेव रामरमणदासत्वेन ख्यातिं प्राप्तवान्
नाम सः ख्यातिं प्राप्तवान् केन नाम्ना ख्यातिं प्राप्तवान् नाम तत्र
रामरमणदासत्वेन
दास नाम रामरमणदासः इति नाम्ना ख्यातिं प्राप्तवान् नाम तत्र कस्यापि नाम किमपि कस्यचित् नाम किमपि भवति किन्तु प्रसिद्धनाम भिन्नं भिन्नं भवति खलु तादृशं तस्य नाम अस्ति रामरमणः किन्तु ख्यातिं तत्र रामरमणदासः एषः रामरमणदासः इति एव आसीत् अतः तत्र रामरमणदासत्वेन
प्राप्तवान् समग्रे अपि उत्कलराज्ये तस्य नाम ख्यातम् अभवत् समग्रे अपि उत्कलराज्ये तस्य नाम रामदासः नाम तस्य नाम रामदासस्य नाम ख्यातं प्रसिद्धम् अभवत्
नाम तत्र उत्कलराज्ये ये जनाः सन्ति ते सर्वे रामरमणदासं जानन्ति तेषु तत्र एषः प्रसिद्धः आसीत् समग्रे अपि नाम सम्पूर्णे राज्ये सम्पूर्ण उत्कलराज्ये सः प्रसिद्धः आसीत् रामरमणदासः प्रसिद्धः आसीत् इति अस्ति समीचीनं अस्तु इदानीं तत्र
धन्यवादः
इदानीम् अस्माकं लघु कार्यमस्ति तत्र यत्र यत्र अत्र स्वरसन्धिः यत् वयं कर्तुं शक्नुमः अत्र तादृशं कार्यम् अत्र कुत्रापि अस्ति न वा इति चिन्तनम् इति परिशीलनम् अतः तत्र प्रथमपरिच्छेदे किमपि अस्ति वा तत्र
परोपकारी
पर योगः उपकारी परोपकारी समीचीनं जगत् सहसन्धिः एतावत् वा अस्माभिः न
पठितवान्
अतः समीचीनं किन्तु तत्रापि सन्धिः अस्ति समीचीनं अग्रे उत्तमं
सनकसुन्दरी तत्र केवलं
वर्णमेलनं
दुःखग्रस्ता इति तत्रापि नास्ति तत्र संतुष्टः इति अस्ति महोदय किन्तु
तत्रापि सन्धिः किन्तु भिन्नः
भिन्नः
तत्र दत्त्वा एव इति अस्ति तत्र यदि कार्यं भवति भवति वा तत्र
दत्त्वा न
भवति दत्त्वैव इति भवति
दत्त्वैव समीचीनं
वृद्धिसन्धिः
दत्त्वैव इति वृद्धिसन्धि समीचीनं अस्तु इदानीं द्वितीयपरिच्छेदः
तत्र न कृतवान् इत्युक्ते किं दत्त्वा एव तत्र सन्धिं न कृतवान् किमर्थम्
तत्र
वैकल्पिकः अस्ति सन्धिः
खलु वाक्ये विकल्पः अस्ति खलु पदे पदे तत्र निश्चयेन करणीयं किन्तु वाक्ये विकल्पः अस्ति अस्माकम् इच्छानुसारं खलु वेदा भगिनी
हा महोदय
हा अत्र तत्र अस्माकम् इच्छा यदि अस्ति चेत् सन्धिं कर्तुं शक्नुमः अस्तु सन्धि मा भवतु इति अपि चिन्तनं समीचीनमेव अतः अग्रे द्वितीये
तदवसरे
प्राप्य इति प्राप्य सवर्णदीर्घ अस्ति
प्राप्य समीचीनं समीचीनं हा एव अपतत् तत्र किं भवति एव अपतत्
एव मार्गे
न न एव योगः अपतत्
एवापतत्
एवापतत् हा तदपि कर्तुं शक्नुमः अस्तु अग्रे जनं वृद्धः यदा नेत्रे नीतवान् तदा रामरमणः
उन्मीलि तत्रापि नास्ति उत्मीलितवान्
वीजन इति शब्दः अस्ति तर्हि अधिक ईज धातुः अस्ति दीर्घैकार ईज
अपि अग्रे किमपि अन्यत् किमपि तत्र नास्ति खलु तर्हि अस्तु प्रायशः तत्र किमपि नास्ति इति मन्ये अस्तु इदानीं तृतीयपरिच्छेदे तत्रापि किमपि नास्ति
अस्ति खलु एतत् उचितम् एतत् उचितम्
हा किन्तु तत्र केवलं मेलनमेव अस्ति खलु त योगः उकारः अतः प्रायशः तत्र किमपि नास्ति इति चिन्तयितुं शक्नुमः रामरमणः वदद्दृष्ट्या सर्वे
भवान् च उच्चकुलीयः तर्हि च अधिक उच्चकुलीयः अत्र कर्तुं शक्यते वा
ओ अस्तु तर्हि करोतु भवान् च उच्चकूलीयः तर्हि किं भवति समीचीनं भगिनि उत्तमं समीचीनं केवलम् अभ्यासार्थम् अतः एव तत्र यद् एतादृश अभ्यासः भवति तदा पठनसमये वयं सर्वस्य परिशीलनं कुर्मः नो चेत् तत्र अस्तु अस्तु एतत् पदं जानामि इति अग्रे सरामः
कोऽपि कः अपि तत्र गुणसन्धिः अस्ति विसर्गसन्धिः
गुणसन्धिः नास्ति कोऽपि इति तत्र
महोदय महोदय गुणसन्धिः अस्ति न अधिक ओ भवति न सत्यं किन्तु पूर्वं तत्र विसर्गसन्धिः भूत्वा गुणसन्धिः आम् प्रथम विसर्गस्य उत्वं भवति अनन्तरं गुणसन्धिः अनन्तरम् अवग्रहः आगच्छति पूर्वरूपसन्धिः खलु
अस्तु 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 समीचीनम् अस्तु अस्तु
न उद्भवेत् नोद्भवेत्
नोद्भवेत् अस्तु उत्तमं उत्तमम् अस्तु अग्रे
तत्र आगतः तत्र आगतः
आशिषा अनुगृह्णाति आशिषानुगृह्णाति
आशिषानुगृह्णाति समीचीनं
तत्रैव कोप्यर्थः अपि भवितुम् अर्हति कोऽपि कोप्यर्थेन सन्धिः
समीचीनं भगिनि समीचीनं उत्तमं प्रभृति सदा भवतु त्वयि तदा अवश्यमेव तव अपेक्षा
अवश्यम् एव
अपेक्षा
अवश्यम् एव किं भवति तत्र
वर्णमेलनं भवति
केवलं वर्णमेलनं
उपेक्षा एव नाम अपेक्षा एव अपेक्षा एव अपेक्षा एव एवा एवादेशः अपि तत्र तावदेव इति मन्ये खलु प्रदर्शयामि अहं तत्र एतत् वयं कर्तुं शक्नुमः प्रदर्शिष्यामि प्रदर्शयिष्यामि अहं
याम्यहम्
इति भवति समीचीनं
कदापि
कदापि कदा योगः अपि कदापि समीचीनं समीचीनम् अपि तत्र इति योगः अवदत्
इत्यवदत्
इति भवति अस्तु समीचीनम्
तत्र
कुत्र भगिनि
कदापि उपेक्षां
तत्र किं भवति
कदापि उपेक्षां
भवति तत्र यकार उकार क्लिष्टकरं भवति
यः विषयः सुलभमस्ति क्लिष्ट किं कारणार्थं करणीयम् अहं न जानामि
नाम एतद् यत्र क्लिष्टरूपं पश्यामः तत्र सुलभरूपम् अस्ति इति ज्ञास्यामः तावदेव
तर्हि अग्रे अयमेव अग्रयमेव समग्रे अपि समग्रे अपि सर्वं भवितुम् अर्हति खलु
उत्तमम् उत्तमं तादृशं करणीयं तदा एव तत्र काव्ये वा अन्यस्मिन् स्थले क्लिष्टरूपम् अस्ति चेत् अस्तु अस्तु एतत्
शिरोभ्रमणं शिरोभ्रमणं भवति
किन्तु भवती गृहे एव अस्ति खलु मार्गे नास्ति खलु
नास्मि स्थिता अस्मि आसन्दे स्थिता अस्मि
अस्तु अस्तु तर्हि चिन्ता नास्ति अस्तु केवलम् अभ्यासार्थं भगिनि तावदेव अस्तु तत्र नाम तत्र यत्र यत्र यत्किमपि पठामः तत्र तु सन्धिकार्यं भवति एव इति तावदेव अत्र तत्र कर्तव्यमिति किमपि नास्ति किन्तु सर्वत्र सन्धिकार्याणि दृश्यन्ते इति यदि कुर्मः न कुर्मः किमपि नास्ति किन्तु सन्धिकार्याणि सर्वत्र सन्ति इति एव तावदेव अस्तु तर्हि तत्र कथां पठितवन्तः समीचीना कथा अस्ति अपि तत्र तत्र कथाद्वयम् अपि अग्रे अस्ति ते तत्र तासां पठनमपि तत्र समीचीनमेव अस्ति अतः उत्तरम् अहं
महोदय एकः प्रश्नः अस्ति न्यायवर्गे भवान् किं किं पाठयति
इदानीं तत्र आत्मा अपि मनः इति विषये पठन्तः स्मः
न्यायवर्गे किं किं तत्र सिलेबस् पाठ्यक्रमं किं किम् अस्ति इति
किञ्चित् क्लिष्टमस्ति भगिनि तत्र वक्तुं किन्तु तत्र लोके किं किम् अस्ति अपि तत्र तस्य निरूपणं नाम तत्र मनः अस्ति आत्मा अस्ति पृथ्वी अस्ति तत्त्वा तत्र एतादृशविवरणम्
अस्तु
तत्र किम् अस्ति किमर्थं पृथ्वी इति जलात् भेद पृथ्वी इति जलं समानं वा भिन्नं वा कथं भेदः अस्ति इति जानीमः प्रत्येकवस्तु यदस्ति तस्य लक्षणं किम् इति तादृशं तत्र भाषायाः तत्र प्रयोगः भवति ताव इति वर्गः तावदेव अहं बहु किमपि न जानामि केवलं तत्र स्वरूप महोदयेन यत् अहं तत्र ज्ञातवान् तद् आदाय अहं तत्र वदामि तावदेव अस्तु तर्हि तत्र समीचीनमस्ति इदानीं तत्र अन्तिम तत्र शान्तिमन्त्रम् उक्त्वा तत्र विरमामः तर्हि अस्तु तत्र सुजाता भगिनी भवती तत्र शान्तिमन्त्रं वदति वा भगिनी अन्ते
आं महोदय सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् हरिः ओम् श्रीगुरुभ्यो नमः सर्वेभ्यः नमस्कारः
धन्यवादः
धन्यवादः महोदय, नमस्कारः,
धन्यवादः महोदय।